हेलो,
तो सलाम तेनिस
टेनिस लंदन की ट्रिब्यूनल में लड़ रहा हूँ।
ना
अच्छे,
ना
ये मैं से कब नारा थे यार, तो समोह तो माल बात
एफ्रेम वाले
एफ्रे।
एफ्रेम वाले
अच्छा, यह मजा कब को सलो ना ना ए फ्रेम।
एफ्रेम वाले ले
सिल्कोट।
जीरो स्टेंग आसो है
अच्छा,
सो तमाने सोतो फ्रेस्ट है
हाँ सोस्त
तमाने सोतो फ्रेस्ट है हाँ
सामान्य सवा तफरा जाता है। शकेता कवा भी न परे डबलूले। अच्छा,
गुल्ले अच्छा वो गुल्ले हुए
गुलाले
हाँ गुल्ले हुए मार दूँ और फेल
मास्टर क्यों कैफ ना बड़ा यूथ।
बाद में फोगो दिशा ललित बने
टिकटॉक ले
बने
लो,
बा
तो
यूज़
मना लो।
ललित ललित ऐसा तो बात कर रहा हूँ मेरा आगे बढ़ले
ओके शी
नहीं अच्छा
ऑनलाइन ना बाकी लाना हमारे सबूत।
एंड आहोन सुनाओ सुनने अगर ऑनलाइन उन देखना हो एंड सुनो आल सलाला वो कुछ नहीं ना आशा
अच्छा
कर
अच्छा बाकाल बाकाल मोला में सो स्टोर कोर्स ना
ओके
बाकाल को ना हाया तस्वीर सिनेमा में मिकेन्यो आधारा शाचा कासरां तकुल का अंदर तकुल सैन्यो रोबा वही डामो बस हम सोच कर क्लासी नो रना
कासरांड तकुल
इसका अंदर तकुल
ओके ये ऑनलाइन उस
ऑनलाइन को ना डामो በኢሜይል ሆኖ እንልክለት በሳምንት ሁለት ቀን በአካል የተማሩትን ኮሜዲያን እሸቱ ያስተማረውን ቪዲዮ እንልክለት አለ። በሳምንት አንድ ቀን ደግሞ ከኮሜዲያን እሸቱ ጋር ዞም ሚቲንግ ይኖረውታል። ማንኛውም ጥያቄ መነሳት ያለበትን ቪዲዮ የሚያልገባውት ነገር ካለ ቢጠይቁ ይሆናል። ክላሱ ይህን ይመስላል። በክሬዲት አወር 750 ብር ነው የምናስከፍለው። አጠቃላይ የምንሰጠው ክሬዲት አወር 20 ክሬዲት አወር ነው።
ኦኬ አጠቃላይ ክፍያው ስንት ነው?
15000 ብር
15000 ብር ለስንት ወር ነው?
ለሶስት ወር
3 ወር ኦኬ
ያ
ጥሩ አንዴ ነው የሚከፈለው?
አንዴ ነው የሚከፈለው። መቼ ሊመዘገቡ አሰቡ?
እስከ መቼ ነው ምስክር ያለው?
እስከ የካቲት 25 ለሚመዘገቡ ተማሪዎች ዲስካውንት አለው።
ኦኬ
10000 ብር ነው።
ኦኬ ስለዚህ ትራንስፎርመር ምንድን ነው የሚደረገው?
አሁን በሰጡኝ ስልክ ቴሌግራም በ75 ቤቱ ስልክ ልክልዎታለሁ። አካውንት በላኩሎት አካውንት ብሩን ካስገቡ በኋላ ስሞትን ስልክዎትን አድርገው ቴሌግራም ላይ ይልኩልናል።
በቃ እንደገባ አሳውቃለሁ።
ያ እንደገባ ቴሌግራም ላይ ይልኩልናል። ስሞትን ስልኮትን እና ኢሜይልን እንዳይረሱ።
የኦንላይኑን ነው ነው የምፈልገው።
በቃ ኦንላይን ከሆነ ኢሜይልን እንዳይረሱ።
ኢሜይል እዛ ላይ እያስገብቸው ነበር የሌሊቱ ላይ እና ባት እያለ መልሶብኝ እኮ ነው።
የየትኛው ላይ
ሌሊት በነበረው የመመዝገቢያ ነበረ።
ኦኬ፣ የባለፈው ላይ ኦኬ፣ ይችላሉ። ይሄ አሁን እዛ ላይ መዝግቤውታለሁ። ልላክሎት እና አካውንቱን እርሶ ቴሌግራም ላይ ኢሜይልን አድርገው ይላኩልኝ።
መልካም ጥሩ አመቻቻለሁ።
እሺ፣ አካውንቱን ልላክሎት። አሁን
አካውንቱን ላኪልኝ እና በተመቸኝ ሰዓት እኔ ባስገባው ሰዓት እኔ ደግሞ እንትን እላለሁ።
ያው ግን እስከ የካቲት 25 መሆን አለበት 10000 ለመሆን። ከዛ በኋላ ካስገቡ ይጨምራል። 15000 ነው ማለት ነው።
ችግር የለም። 15000 ሆነ ምንም ቀኑን
እሺ፣
ቆጠረልኝ። ባስገባው ሰዓት እኔ እንትን ልል እችላለሁ በዛው ቁጥር።
እሺ፣ ቴሌግራም ላይ ልኬልዎታለሁ። ቴሌግራም ላይ ሳይሆን አሁን ቀጥታ ቴክስት ልኬልዎታለሁ።
አየሁት።
በእሷ ቀና የሚልኩልኝ። ስለዚህ ኦንላይን ከሆኑ ኢሜይል ሆነ እንዳይረሱ። መልካም ቀን።
መልካም እሺ።
እሺ።